प्रश्येनो नमाधिरमं सुमस्मै शिरो दासस्य नमोजेर्मधायन् रावन्नमेयं साभ्यं ससन्तं वृणग्राजा सपिशासं स्वस्ति दिविप्रोरहीमायस्य दृढाः पुरो वज्रं शवसानदर्दः सुधामन्दद्रेग्ना अप्रभृष्यमृजस्वेदात्रं दासुषेदाः सवेदसं दशमायं दशो निन्दो तु जमिन्द्रस्वभिष्टिसं नः आदग्रं सस्वधिभं ज्योतानाय माधुर्नसीमुपसृजायध्यैः सजीं श्रुधो वनते अप्रातीतो बिभ्रद्वज्रं रत्रहणं गभस्तौ तिष्ठद्धरि अध्यस्ते भगत्ते वचो युजा वहत इन्द्रविश्वम् सनेमतेव सानव्या इन्द्रप्रभुरवस्तवन्तजेना यज्ञैः सप्तयत्पुरःशर्मसारधीर्दर्धन्दासेः पुरुकुत्साय शिक्षन् संमृधयन्द्रपूर्व्यो भोर्वरिवश्यन्नुशने काव्याय परानवास्त्वमनुजेयम् महे विद्वेदाधस्वन्नपादम् त्वन्धुनीरिन्द्रधुनीमदेर्णोरवशीरानश्रवन्तीः प्रयच्छ मुद्रमदीसूरपर्षि पारया दुर्वसंयुम् स्वस्ति तव हत्यरिन्द्रविश्वमायौ सहस्रौ धुनी चुमुदीयाघशिष्वभिर्दीदयदिग्दुभ्यं सोमेभिस्सन्दन्दभेदेरत्नभेदः पथ्या अर्कैः इमावृत्वा पुरतमस्य कारोरहव्यम् वीरहव्याहवन्ते धियोरथेष्टा भजरम् नवीयोरयर्विभूतिरीयदेव च तमस्तुरयिन्द्रम् यो विदानो गिर्वाहसङ्गेभिर्यज्ञवृद्धम् यस्य दिवमति मह्ना पृथिव्याः पूर्वमायस्य ऋचमहित्वम् सयितमो वजुनम् ददन्वत्सूर्येण वजुनवच्चकार कदा देवर्ता अमृतस्य धामे यक्षन्तो न मीनन्ति स्वधावः यस्ता चकार सगुहस्विन्द्रः कमाजनम् चलति कासु भिक्षु कस्ते यज्ञो मनसे संवरायको अर्क इन्द्रकथमस्व होता इदाहि देवेभिगतः पुराजा प्रत्नास आसु पूर्वकृत्सखायः ये मध्यमा च उतनूतनास उतापमस्य पुरुहूतबोधि तम् पृच्छन्तो वरासः पराणि प्रत्नाद इन्द्रश्रुत्यानु ये मुः अर्चामसि वीरब्रह्मवाहोजा देव विद्मता त्वा महान्तम् अभित्वा पाजो रक्षसो विदस्थे महीजज्ञानमभिदत्सु तिष्ठ तव प्रत्रेण युज्येन सख्या वज्रेण दृष्टो अपदानूदस्व सदुश्रुधेन्द्रनूतनस्य ब्रह्मण्यतो वीरकारुधाय त्वम् आभिप्यतिवीदृणाम् सस्वद्बहुध सुखभजेष्टौ क्रोधदेव नूनम् मित्रमिन्द्रम् मरुतः कृष्णावासेनो अद्य प्रभूषणम् विष्णोमग्निम् पुरम् धिंसवितारमोषधीः पर्वतांश्च हिमगुत्वा पुरुसागप्रयज्यो जरितारो अभ्यर्थ्यम् चर्कैः श्रुधीहमाहूभतो भूभानो नत्वा वाङ्गन्यो आमृतत्वदस्ति नो महावाचमुपायाहि विद्वान् विश्वेभिस्तो नो सहसो यजत्रैः ये अग्निजिह्वारे दशाप आसुर्ये मनुम् चक्रुरुपरन्दसाय स नो बोधिपुरजेता सुखेषु तदुर्गेषु पथिकृद्विदानः ये अश्रमास पुरभो बहिष्ठास्तेभिर्न इन्द्राभिवक्षिवागम् एकयुद्धव्यश्चरणीनामिन्द्रम् तम् गेर्भिरभ्यर्थ आभिः ृषभो वृष्यावान् सद्यः सत्त्वा गुरुमायः सहस्वान् नमो नः पूर्वे पितरो नवग्वा सप्त विप्रासो अभिवादयन्तः नक्षद्दाभम् ददूरिम् पर्वतेष्ठामद्रोघवाचम् मतिभिः समिष्टम् तमीमह इन्द्रमस्य राजः पुरुवीरस्य नृपतः पुरुक्षोः यो अस्क्रीधोजिरजरस्वर्भान्तमाभरहरिवो मादयध्यै तन्नो विवाचो यदि ते पुराजिज्जरिदार आनतः सुम्नमिन्द्र तस्ते भागः किम् वयो दुद्रखिद्वः पुरोहूतपुरोवदोसुरग्नः तम् पृच्छन्ति वज्रहस्तम् रथेष्टामिन्द्रम् वेपीवक्वरीयस्य लोगीः द्विग्राभम् तु विकोर्मिम् रभोदाम् गादुवीषेण क्षतेतुम् रमच्छ अजाहत्यम् मायया वावृधानम् मानोजुवास्तफलः पर्वतेन अच्युताचिद्वीरिदा स्वो जो रुजो विदृढा दृषदा वीरत्सिन् तम्बोधियानव्यस्यासमिष्ठम् रत्नम् रत्नवत्तारिदम् सयध्यै नोऽक्षदलिमानस्सुबम्भेन्द्रो विश्वान्यदि दुर्गाणि आजनाय दुर्गाणि पार्थिवानि दिव्यानि दीपयोऽन्तरिक्षा तपावृढन् विश्वतः सोऽधिषातान् ब्रह्मद्विषे सोऽधयक्षामपश्च भुवोजनस्य दिव्यस्य राजा पार्थिवस्य जगदस्त्वेन्द्रृग् धिष्ठवज्रम् दक्षिणेन्द्रहस्तविश्वायाः स्वस्त्यम् सहस्रदूर्याय बृहदीमवृद्धाम् यजादासान्यार्याणि वृत्राकरो वज्रम् सुदुकानाहूषाणि स नो निजुद्भिः पुरुहूतवेधो विश्ववाराभिरागहि प्रयज्यो न या अदेवो वरतेन देवाभिर्यायितूयमामध्यदृग् सुदयित्वम् निमिश्रयन्द्रतो मे स्तोमे ब्रह्मणि सस्यमान उक्ते यद्वा युक्ताभ्याम् मघवङ्गरिभ्याम् बिभ्रद्वज्रम् बाह्वोरिन्द्रयासि यद्वा दिवि वार्ये सुष्मीमिन्द्रवृत्रहत्येव शिशूरसातौ यद्वा रक्षस्य विभ्युषो अविभ्यदरन्धयः सद्धतयिन्द्रदस्यून् पादासुतलमिन्द्रो अस्तु सोमम् मृणेनीरुग्रोजरितारभूति कर्ता वीराय सुष्माय भूलोकम् दातावतस्तु मते कीरयेचित् यन्ते याम् दिशमराहरिभ्याम् बभ्रिर्वज्रम् पविः सोमम् ददीर्गाः कर्ता वीरम् नर्यम् सर्ववीरम् श्रोताहवम् कृणतस्तोमवाहाः अस्मै वयम् यद्भावानदद्वीपे महेन्द्राययो नः प्रदिवो अपस्कः सुतेजो मेऽस्तु मसि संसदुग्धेन्द्राय ब्रह्मवर्धनम् यथा सत् ब्रह्माणि च गृहे वर्धनानि तावत्त इन्द्रमतिभिर्विष्मः सुतेजो मे सुतपाः सन्तमानिराण्याक्रियास्वक्षणानि यज्ञैः स नो बोधिपुरोला सम्भरा नः पिबातु सोमम् गोरुजीकमिन्द्र एदम् बर्हिर्यजमानस्य दीदोरङ्गृधित्वा यदौ लोकम् समन्दस्वाह्यनिदोषमुग्रप्रत्वा जिज्ञासा जिमे अश्रुवन्तु प्रेमेण वासः पुरुहूतमस्मे आत्मेयम् धीरवासैन्द्रयम् याः संवत्सकाय संयथा सुतेषु सोमेभिरीम् प्रणता भोजमिन्द्रम् कुमित्तस्मा असति नोभराजनदृष्मिन्द्रो वासे मृधाति येवेदिन्द्रस्तुते अस्ताभि सोमे भरद्वाजे रक्षयतिन्मघोनाः असद्यथा जनित्र उदसूरीरिन्द्रो राजो विश्ववारस्य दाता ऋषामदयिन्द्रे श्लोक मुक्तादासो मेषु सुतपारिजीषि अर्चत्र्यो भगवान् रभ्य मुक्थैर्जुक्षो राजा गिरामक्षीतोतिः तदो निर्वीरो नर्यो विचेताश्रोताहवम् गृणतभुर्योतिः वशस्सं तो नराम् कारुधाया वाजीस्तुतो विदधेदातिवाजम् अक्षो न चक्र्यो सूरबृहन्पते मह्नारीरिजे रोदस्यो वृक्षस्य नुते पुरुहूतभजाभ्यूतयोरुहृलिन्द्रपूर्वीः सचीवतस्ते पुरुषा कसाकाकमाविव श्रुतयः सञ्चरणीः मत्सानाम् न लन्तयस्त इन्द्रदामन् वन्तो अदामानः सुदामन् अन्यदर्वरमन्यदुःस्वोसश्च सन्मुहूरा चक्रिरिन्द्राः मित्रो नो अत्र वरुणश्च पूषार्योपसश्च मर्येतास्ति यत्तदापो न पर्वादस्य वृक्षा दुःखेभिरिन्द्रालयन्त यज्ञैः तन्त्वाभिस्वष्टतिभिर्वाजयन्त आजन्न जग्मर्गिर्वाहो अस्वाः नयञ्जरन्ति शरदो नमासा नद्या भजिन्द्रामवकर्षयन्ति वृद्धस्य चिद्वर्धतामस्य तनोस्तोमेभिरुक्थैश्च दस्यमाना न बीलवे न मतेन स्थिराय न शर्धते दस्योजूदायस्तवान् अज्रागिन्द्रश्च गिरयश्च गृष्वागम्भीरे चिद्भवति गाधमस्मै गम्भीरेण उरुणामत्रिन्द्रेषोऽयन्धिसुतपावन्वाजान् स्था ऊषु ऊर्ध्वभूति अरीषण्यन्नक्तोऽर्व्योष्टौ परिदज्ञायाम् स च स्वनायमवासे अभीकयितो वातमिन्द्रपाहि ऋषः अमाचैनमरण्ये पाहि ऋषो मदेव सतहीमास्वीराः जातभूतिरपमाजापरमाजा मध्यवेन्द्रसुष्मिन्नस्ति ताभिरूढुवृत्रहत्ये वीर्ण एभिर्तवाजैर्महान्न उग्र आभिस्मृधोऽभिषतीररीषण्यन्न मित्रस्य व्यथया मन्यमिन्द्र आभिर्विश्वा अभिरुजो विषोचीरार्याय विशोपदारीर्दासीः इन्द्रजामया उतये जामयोर्वाचीनासो मनुषो युज्रे त्वमेणाम् मिथुरासवांसि जहि वृष्ट्यानि गृणीवराजः शूरो वासूरम् वनते शरीरैस्तनूरुजातरुषियकृण्वैते लोके भागोषतन येजसत्सु विक्रन्दसी उर्वरा सुब्रवैते न हि त्वा शूरो न दुरो न धृष्टर्न त्वा योधो मन्यमानो युयोध इन्द्रनकृष्ट्वा प्रत्यस्तेषाम् विश्वा जातान्यभ्यसितानि समत्यत उभयोर्नृम्नमयोर्यदि वेधसः समिधेहवन्ते नृत्रे वा महो नृपतिक्षये वा व्यजस्वन्ता यदि विदन्तसैते अधस्मानोचर्षणयोजते जालिन्द्रत्रातोदभवावरूता अस्माकासो येनृतमासो अर्य इन्द्रसूरयो दधिरे पुरो नाः अनुते दायि महेन्द्रियाय सत्रा देवि स्वमनोवृत्रहत्ये अनुक्षत्रमनुसो यजत्रेन्द्रदेवेभिरनुते शक्ये ये मा न स्पृथः समाजा समत्सिन्द्ररारन्धिमीधीरदेवीः विद्यामवस्तोरवासा गृणन्तो भरद्वाजा उदत इन्द्रनूनम् श्रुधीरा इन्द्रह्वयामसित्वा महोवाजस्य सातौ वा वृषाणाः संयद्विसोऽयम् दसूरसाता उग्रन्नो बह्वाजे अहन्ताः त्वाम् वाजीह वदे वाजिनेयो महोवाजस्य गद्यस्य सातौ त्वमाम् वृत्रेष्विन्द्रसत्त्वरिन्दरुत्रम् त्वाम् चष्टे मुष्टिहा गोषु युध्यन् त्वम् कविम् चोदयोर्कसादौ त्वम् कृष्णम् दासुषेव तम् शिरो अमर्मणः पराहनदिजिग्वायसंस्यम् करिष्यन् तम् रथम् प्रभारो योधमृष्णमापो युध्यम् तम् ऋषभम् दसद्युम् त्वम् दुग्रम् वेदस वेदचाहन्त्वम् विधिम् गृणन्तमिन्द्रदूतोः त्वम् तदुत्थमिन्द्रबर्हणाकः प्रयच्छता सहस्रा सूरदर्षि अपगिरेर्दासम् संवारम् हन्त्रावो दिवो दासम् चित्राभिरुचि तम् श्रद्धाभिर्मन्दसारस्वमैर्दभीतये च भूरिमिन्द्रशिष्वप् त्वम् रजिम् पिठीन सेदसस्यम् शक्यम् सहस्रासच्चासहन् अहम् चलदत्सूरिभिरानस्याम् प्रभद्याय इन्द्रसुम्नमोजाः त्वया यत्स्तवन्ते सधवीरवीरास्त्रिवरूथेन नहूरासविष्ट वयम् ते अस्यामिन्द्रद्युम्नहूतौ श्रायस्याममहिनः प्रेष्ठाः प्रादर्दनिः क्षत्रश्रीरस्तु श्रेष्ठो घने वृत्राणाम् सनजेधनानाम् किमस्य मदे किम्वस्य पीतामिन्द्रः किमस्य सख्ये चकार रणाभाये निषति किन्ते अस्य पुरा विद्रे किमनूदनासः सदस्य मदे सद्वस्य पीतामिन्द्रः सदस्य सख्ये चकार रणाभाये निषति किन्ते अस्य पुरा विद्रे सदनूतनासः न यजते महिमनस्तमस्य न माघवन्मघवत्वस्य विद्मा न राधसो राधसो नूतनस्येन्द्रनकर्ददृत इन्द्रियम् ते एतत्यन्त इन्द्रियमाचेदियेनावधीर्वरसीखस्य शेषाः वज्रस्य यद्ये नियतस्य सुष्माः स्वनात्येदिन्द्रपरमो ददार वधीरिन्द्रो वरसीखस्य देशोऽभ्यावर्तिने जायमानाय शिक्षन् जीवतो यद्धरीयुवीयायाम् हन्पूर्वे अर्धेभियसापरोदत् तम् सच्छतम् वर्मिणा इन्द्रसाकम् यव्यावत्याम् गुरुहोतस्रभस्या ऋचीवन्द्रस्वरवेपत्यमानाः पात्राभिन्दानान्यर्थान्यायन् यस्य गावा वरुडासूयमस्यूमन्दरूषु चरतो रेरीहाणा ससृञ्जायाय दुर्वसम्बरादाद्विजीवतो दैववादाय शिक्षन् जयाङ्गग्निरथिनोऽभिंसलिङ्गाधूमतो मघवा मह्यम् सम्राट् अभ्यावर्तीचायमानो ददादिशूनाशेयम् दक्षिणा पार्थवानाम् आगावो अग्मन्वतभद्रमक्रांसियन्दुगोष्ठेरणयन्त्वस्मे प्रजापतेः पुरुरूपाय इहस्विन्द्राय पूर्वीरुढसोदुहानाः इन्द्रो यज्वने वृणते च शिक्षद्युपे ददादिनस्वम् मूषायति भूयो भूयो रजमिदस्य वर्धयन्नभिन्नेखिल्ये ददाजिरे वयम् नदानासम् दिनतभादितस्कारो नासा मामित्रो व्यथिरादधर्षति देवांश्चयाभिर्गज ते ददाजिषज्योगित्राभिस्तजते गोपतिः सह नदा अर्वा रेणुककाटो अश्रुतेन संस्कृतत्रमुभयन्ति ता अभि मृगायमभयम् तस्य ता अनुगावो वत्तस्य विचारन्ति यज्वनः गावो भगो गाव इन्द्रो मे अच्छाङ्गावः सोमस्य प्रथमस्य भक्षः इमाया गावस्य नादेन्द्र इच्छामि धृता मनसा चिदिन्द्रम् यूयम् गावो मेद यथा कृतम् चेत श्रीरञ्जत्कृथा सुप्रदीकम् भद्रम् गृहम् भद्रवाचो बृहद्गोपया उच्यते सभासु प्रजावादीश्रूयवासम् दिशन्ति शुद्धावस्वप्रभाणे विभन्ति मावस्तेन ये सतमागतम् सपरिवो हेति रुद्रस्य वृद्ध्याः उपेतमोपवर्चन वासुकोषोपवृच्छताम् उपर्णभस्तरेन्द्रे भद्रम् नो अपि वादयमनाः ॐ हरि ॐ इन्द्रम् वोनरः सख्याय देवर्महो यन्तः सुमतये चकाराः महो हि दाता वज्रहस्तो अस्ति महामूरण्डमवसेयजध्वम् आयस्मिन् हस्ते नर्यामि भिक्षुरारथे हिरण्यये रथेष्टाः आरस्मयोगभस्योस्तोरयोराध्वन्नस्वासो वृषणो युजानाः श्रिये देवा दातु भावे वक्षर्धर्वज्रेतमसा दक्षिणावान् ोत्कम् सुरभिन्द्रसेकम् स्वा अन्ननेदविषिरो बभूथ सतो महाविश्वतो भोद्यस्मिन् भक्तिः पच्यते सन्ति धाराः इन्द्रमनस्तु वन्दो ब्रह्मकारा उच्छासं सन्तो देववादतमाः हरे अन्तस्तवदोधा यस्य विदुपावधेरोदीमहित्वा आता सूर्यः प्रेणति तूतु जानो जूथे पाप्सु समीचमानभूति एवेदिन्द्रः सुभवरिष्वो अस्तूति अनूतिहिरिशुक्रः सत्त्वा एवा हि जातो असमात्योजाः पुरु च वृत्राः नदिनिदस्यून् भूये द्वावृधे वीरायङ्गेको अजुर्योदायधे वसूनि प्ररीरिजे दिव इन्द्रः पृथिव्यार्थमिदस्य प्रतिरोदसि उभे अधामन्ये बृहद सूर्यमस्यजानी साधारण किरामीनादि दिवे दिवे सूर्यो दर्शतो भोद्विसत्त्वान्निर्भिया शुक्रदुर्धात् अद्याजिन्न चितरवो नदीनाम् चदाभ्योरदो गातुमिन्द्र निपर्वता अध्वसदोरसेतस्त्वया दृढानि शुक्रतोरजांसि सत्यमित्रन्न त्वा वाग्रण्यो अस्तीन्द्रदेवो न मध्योज्यायान् अरन्नयिम् परिजया नमन्नो वा सृजो अपोच्छा समुद्राम् त्वमपो विदुरो विषो चीरिन्द्रदृढवानुजः पर्वतस्य जगदश्चरणीनाम् साकम् सूर्यम् जनयन् चामुषासम् अभूरेको रजिपतेरजीनामागस्तयोरधिथा इन्द्रकृष्टीः विदोके अच्युतनाये च सूरेवो चन्दचर्षणयो विवाचः तद्भियेन्द्रपार्थिवानि विश्वाच्युतानि चिचावयम् ते रजांसि या वा क्षामा पर्वता सोपनानि विश्वम् दृढम् भजते अध्वन्नाते तम् कुत्सेनाभिसुष्टमिन्द्रासुषम् युध्यकुजभङ्गभिष्ठौ तस प्रभित्ते अथ सूर्यस्य मुषायश्चक्रमपि वेरपांसि तम् सदान्यपसंभरस्य पुरो जगन्था प्रतिनिदस्योः अधिक्षो यत्र सत्यासति भो दिवो दादाय सम्भते सूतक्रे भरद्वाजाय गृणते वसूनि स सत्यसत्त्वन्महतेरणाय रथमातिष्ठतुमिरन्न भीमम् यायि प्रपथिन्न वसोपमद्रिप्रजश्रुतस्रावय चर्षणिभ्यः अपूर्व्यापुरतमान्यस्मै महे वीराय तपसे सुराय विरप्सिने वज्रुणे सन्तमानि वचाम् स्यासास्थवीराय दक्षम् समातरा सूर्येनाकवीनाम वासयद्रुजदद्रिम् गृणानः स्वाधिभिर्रिक्पभिर्वामसानमुदुश्रियानामस्मिदन्निदानम् सवन्निभिर्रिक्पभिर्गोषुदस्वन्विदज्ञोभिः पुरकृत्वा जिगाय पुनः पुरोहा सखीभिः सखीयम् दृढारुरोजकविभिः कविः सन् स सनीव्याभिर्जरिता रमच्छा महोवाजेभिर्महद्भिश्च सुष्मैः गुरुवीराभिर्वृढभक्षितीनामागिर्वनस्विदाय प्रजाहि सदर्गेण सवसा तत्तो अत्यैरप इन्द्रो दक्षिणतस्तु राणाय इत्थाजानानपावृदर्थम् दिवे दिवे विविशुर प्रमृश्यम् यगोजिष्ठयन्द्रतम् सुमो धामदो वृषम् स्वभिष्टिर्दास्वान् सोमस्यम्यो भनभस्व स्वो वृत्रा समत्सु सा सह दमित्रान् त्वाम् हि इन्द्रवसे विवाचो हवम् ते दर्शणयस्सूरसातौ त्वम् विप्रेभिर्विपणीरदायस्तो दलित्सनीतावाजमर्मा त्वन्दाङ्गिन्द्रोभयाङ्गमित्रान् दासा वृत्राण्यार्या च सूर अधीर्मने वसुधीतेभिरकैलादर्शणान् प्रेतमा सत्त्वम् न इन्द्रकवाभिरुदीर्घा विश्वायोरभिता वृधे भूः स्वर्गादायध्वया मदि त्वायुध्यम् तो नेमधीता वृत्सूर नूनम् न इन्द्रभराजस्याभवामृणीक उतनो अभिष्टौ इच्छा गृणन्तो बहिरस्य सर्वम् दिविश्यामपार्ये घोषतमाः सञ्चत्वे जग्मर्गिर इन्द्रपूर्वेर्विषद्वद्यम् दिविभो मनीषाः पुरा नूनम् च स्तुतयर्षीणाम् प्रस्पृधयन्ते अध्युत्थार्का पुरुभूतो यः पूर्वभूतदर्भाङ्गेकः पुरप्रशस्तो अस्ति यज्ञैः कथो न महेशवसेयुजानो ओस्माभिरिङ्गो भूत् नयम् हिनसन्निधीतयो न वाणीरेन्द्रम् न क्षन्तीदभिवर्धयन्तीः यदि स्तोतारः शतम् यत्सहस्रम् गणन्ति गर्वाणसंसम् तदस्मै अस्मायेतद्दिव्या अर्थेव मासामि वीक्षयन्तेऽन्ययापि सोमाः जनम् न सन्नन्नभिसंयलापः सद्रावावृषर्भवनानि यज्ञैः अस्मायेतन्मह्याम् गोषमस्मायिन्द्राय स्तोत्रम् मतिभिरवाचि असद्यथा महतिवृत्रतो जयन्द्रो विश्वायोरभिता वृधश्च कदा भूवन्नतक्षयाणि ब्रह्म कदा स्तोत्रे सहस्रपोष्यम् दाः कदा स्तोमम् राजोऽस्य राजा कदा धियः करशिवाज रत्नाः करिः स्वित्तदिम् द्रयेन्द्रभिन्द्रेन्वीरैर्वीरान्नीलया सेजयाजीन् ृथाजुगाधीजया दिवोष्वेन्द्रद्युम्नम् स्वर्वध्येह्यस्मे कर्गे स्वित्तदिन्द्रयज्जरित्रे विश्वब्रह्म गृणवः सविष्ठ कदाधियो नीरो युवासे कदा गोमघावनानि गच्छाः स गोमघाजरित्रे अश्वश्चन्द्रावाजश्रवसो अधीदेहि वृक्षाः ीभिः सुदुघामिन्द्रधेनुम् भरद्वाजेषु सुरुचोरुच्याः तमानूनम् वृजनमन्यथाजच्छोरो यच्छक्रविदुरो गृणीषे मानिररम् सुक्रदुघस्य धेनोराङ्गिरसान् ब्रह्माणाभिप्रजिम्ब सत्रामदा दत्तव विश्वजनन्याः सत्रारायोधये पार्थिवासः सत्रावाजा नाम भवो विभक्ता यद्देवेषु धारयथा सुर्यम् अनुप्रये नमोजो अस्य सत्रादधिरे अनुवीर्याय शिवमगृभेदुधेर्वते चक्रतम् रञ्जन्त्यपि वृत्तहत्ये तम् सध्रीतिरुदयो वृष्ण्यानि पुंस्यानि नियुतस्तस्तुरिन्द्रम् समुद्रम् न सिन्धवमुक्तसुष्माविरावि सन्ति स राजस्थामुपसृजागृणानः पूर्वश्चन्द्रस्य त्वमिन्द्रवस्वाः अदर्भभूता स मोजनाः नामेको विश्वस्य भुवनस्य राजा स दुस्रोधिस्वत्यायो दो भोजर्जौर्न भूमाभिरायो अर्जः असोयसा न सवासा च कालो युगे युगे भयसा चैकी कालः अर्वाग्रथम् विश्ववारन्दमुग्रेन्द्रयुक्ता सोहरयो वहन्तु सर्वान्मादस्ते अद्य रोद्रोणेहरजकर्माग्मन्पुरानाभूवन् इन्द्रो अस्य पूर्व्यः परीयाद्युक्षोदस्योव्यस्य राजा आसश्रानादस्तवसानमध्येन्द्रम् सुधापे रक्षासो अश्वा अभिस्रवरिज्यन्तो वहे जन्मो जन्मवायोरमृतमिदस्येत् वरिष्ठास्य दक्षिणामि यत्तीन्द्रो भूनाम् द्विगोर्भिदमः यजावज्रिमः पर्यास्यम्भो महाचारोदयसेऽपि सूरीन् इन्द्रो वाजस्य स्थवीरस्य दादेन्द्रो गीर्भिर्वर्धताम् वृद्धमः इन्द्रो वृत्रम् वरिष्ठोऽस्तु दत्ताता सूरिः प्रीणति तु जानः अपादितौ दूरश्चित्रतमो महीम् बर्हद्युपतीमिन्द्रहूतिम् अन्यसीम् भीतिम् दैव्यस्यामञ्जनस्य राजिम् वनते सुदानोः दूराच्चिदावसतो अस्य कर्णाघोषादिन्द्रस्य दण्ड्यतिब्रुवाणः ेयमेनम् देवभूतर्वृत्याम्बोधियापरमया पुरायामजरमिन्द्रमभ्यरोषकैः ब्रह्मादिगजोदधिरे समस्मिन्महाम् शस्तोभो अधिवर्धनिन्द्रेः वर्धाद्यम् यज्ञभुतसमपैन्द्रमवर्धाद्ब्रह्मगिरमुक्था चमन्न र्धान्माधाः शरदोद्यमलिन्द्रम् एवाजज्ञानम् सहसे असामिवावृधानम् राधासे च श्रुताय महामुग्रमवासे विप्रनूनमाविवासेमवृत्रतूर्येषु मन्त्रस्य कवेर्दिव्यस्य वह्नेर्विप्रमन्मनोमजलस्य बद्ध्वाः अपाडस्तस्य जलस्य देवेणो युवस्य गृहतेजो अग्राः अयमो गानः पर्यत्रेभुस्रार्गदेजभिर्वृतयुज्योजाः रुजदरुग्नाम्बिबलस्य दानम् पणेर्वजोभिरभियोधीन्द्राः अयम् योदयद्युतोऽन्दोरावस्तो शरदैन्दोरिन्द्र इमम् केतुमादधर्णोचिगह्नाम् श्रुतिगन्मनभुषश्चकार अयम् रोचयधरुचोरुचानो ओयम् वासयद्वेदेन पूर्वीः अयमीयदरितयुग्भिरस्मैः स्वर्विधानाभीनादर्णविप्राः नोग्रेणानोग्रेणदे प्रत्रलाजन्निरप्यङ्गवसुदेयाय पूर्वीः अपवोषधीरसुनादिकार्वतोरृतसेरिः इन्द्रपिबदुभ्यम् सुतोमदायावस्य हरिभूतासखाय उदप्रगाय गण आनिषद्याथा यज्ञाय गणते पयोधाः अस्यापि पयस्य यज्ञान इन्द्रपदाय क्रत्वे अवीवो विरप्सिन् समूते काभो नलाभो अद्रिलिन्द्रम् समह्यन् पीतये समस्मै समिद्धे अग्नौ सुसयन्द्रतो महात्मा वहन्तु कराजो बलिष्ठाः स्वायतामनसा जोहबीबीन्द्राजाहि सुभिताज महेनाः आयाहि सस्वतु सताज याथेन्द्र महामनसा सोमपेयम् उपब्रह्माणि शृणव इमानोधादे यज्ञस्तन्वे एव योधात् इन्द्रदिविवाजेयधृषज्ञ स्वे सदनयत्र वासि అతో నో యజ్ఞమవాసే నియుత్వాన్ సజోషాః పాహి గిర్వనో మరుద్భిః అహేళమానముపాయాహి యజ్ఞం తుభ్యం భవంత ఇంద్రవస్తుదాసాః గాభో నవజ్రేం సమో గో అచ్చేంద్రాగాహి ప్రథమో యజ్ఞానాం యాతే కాపృత్సుకృతాయా వరిష్టాయ యాసస్వద్విభాసి మధ్వా పూర్ణిం పాహి ప్రతే అధ్వర్యురస్తాత్సం దేవజ్రో వర్ధతామింద్రగవ్యుః ఏషద్రప్సో వృషభో విశ్వరో భయింద్రాయ విష్ణే సమకారి సోమాః ఏతం వీవ హరివస్తాదనుగ్రహస్తే జీవే ప్రతిభియస్తే అన్నం సుతస్సోమో అసూదాదీంద్రవస్యాంసి గిరిభేదనాయ ఏదంతి దర్భగుపాయాహి యజ్ఞం తేన విశ్వాస్తవీషీరాణస్ వయామసిర్తేంద్రయాహ్యర్వానం తే సోమస్తన్వే భవాది శతక్రతో మాదయస్మాసు ప్రాస్మాపమృతనా సుప్రభిక్షో ప్రత్యస్మై విభీషతే విశ్వాని విదుషే భర అరంగమాయ జగ్మయే పశ్చాద్ధ్వనేన రే ఏమేనం ప్రత్యేతన సోమేభి సోమపాయమం అమత్రేభిర్విజీషిణమింద్రం సుతేభిరిందూభిః సోమేభిః ప్రతిభూషత వేదా విశ్వస్య మేధీరో ధృషత్తం తమిరేషతే అస్మా అస్మాయుదం ధసోధ్వర్యో ప్రభరాసుతం కుమిచ్చామస్య సర్ధాతోభిస్తేరవస్తరాత్ యస్యత్యచ్ఛంబరం వదే దివో దాసాయ రంధయాః అయం స సోమాయింద్రతే సుతః పిప యస్య తీవ్రసుతం మదం మధ్యమంతం చ రక్షసే అయం స సోమాయింద్రతే సుతః పిప యస్య గా అంతరస్మానో మదే దృఢా అవాదృజః అయం స సోమాయింద్రతే సుతః పిప యస్య మందానో అంధ సోమాఘో నందరిషే సమాః అయం స సోమాయింద్రతే సుతః పిప యో రాజిమోరిందమో యోజ్యుమ్నైర్జుమ్నవత్తమః సోమస్సుతస్త ఇంద్రతేస్తి స్వధాపతే మదాః యః షగ్మస్తు విషగ్మదే రాజో దామావాదీనాం సోమస్సుతస్త ఇంద్రతేస్తి స్వధాపతే మదాః ఏన వృద్ధో న శమాదాదురో న స్వాభిరూదిభిః సోమస్సుతస్త ఇంద్రతేస్తి స్వధాపతే మదాః యమూ వో అప్రాహణం గృణీషే సవసస్పతిం ఇంద్రం విశ్వాసాహం నరం మంగిష్టం విశ్వదర్శనిం యం వర్ధయంతీర్గిరపతిం తులస్య రాధసః తమిన్వస్య రోదసీ దేవీ సుష్మం సపర్యతః తద్వా ముక్తస్య బర్హణేంద్రాయో వస్త్రణీషణి విపోనయస్యోదయోపి యద్రోహంతి సక్షితాః అవి తద్దక్షం మిత్రో నవీయాన్వమానో దేవేభ్యోమస్యో అచైత్ సదాస్థౌలాభిర్ధౌతరీభిర్విష్యాపాజిరాభవత్సఖిభ్యః తస్య పరిభేదా పాయి శ్రీజేమనాం శ్రీదేవాసో అక్రన్ దధారో నామ మహోవచో భర్వమర్దృశయేభేన్యో వ్యావహ యుమత్తమం దక్షం దేహ్యస్మే దేధాజనానాం పూర్వీరరాదీః వర్షీయోమయకృణయసేభ్యర్థనస్య సాతామస్మా విడ్ఢి ఇంద్రదుభ్యమిన్నాగమన్న భూమ వయం దాత్రే హరి భూమా వివేన నకీరాభిర్దృశే మధ్యత్రాకిమంగరధ్వజోదానం ద్వాహుః మాజస్వృఢభనోరీధామాతే రేవతః సఖ్యేరీషామ పూర్వీష్ట ఇంద్ర నిషిధోజనేషు జహ్యశ్వే ప్రమృహాణదః ఉదభ్రాణీతస్తనయన్నియర్తేంద్రో రాధాంశ్యశ్వానిగవ్యామాది ప్రతిమకారుధాయామాత్వా దామానాదభన్మభోనాః अध्वर्यो वीर प्रमहे सुदानाविन्द्राय भरतह्यस्य राजा यः पूर्व्यभिरुतनूतनाभिर्गेभिर्वावृधे गृह्णतामृषीणाम् अस्य मदे पुरुवर्पांसि विद्वानिन्द्रो वृत्राण्यप्रतीजघान तमप्रहोषिमधूमन्तमस्मै सोमम् वीराय शिप्रणे पिबध्यै पादासुतमिन्द्रो अस्तु सोमम् हन्ता वृत्रम् वज्रेण मन्दसानः गन्तायज्ञम् परावदश्चिदच्छापसुद्धीनामविताकारुधायाः इदम् जगत्पात्रमिन्द्रपाणमिन्द्रस्य प्रियममृतमपायि मत्सत्यथा सौ मनसा च देवम् या अस्मद्वेषो युजमद्यम् एनामम् दानो जगिशूरशत्रोञ्चामिमजामि मुखभवन्नमित्राणि अभिषेणाद्या आदेदीसानाम् पराजयिन्द्रप्रवेणा जगि च आदृष्ट्वा रामघवन्निन्द्रवृत्स्वा अस्मभ्यम् महिवरेव सुखम् काः अपाम् तोकस्य तनायस्य जेष इन्द्र सूरीन् क्रेणहिष्मानो अर्धम् आत्मायो वृषा नो युजाना वृषा रथा सो वृषा रत्मजोत्याः अस्मत्राञ्चो वृषा नो वज्रवाहो विष्णे मदाय सुयुजो वहन्तु आदे वृषन् वृषा नो द्रोणमस्तर्घृतपृषो नोर्मजो मदन्तः इन्द्रप्रदभ्यम् वृषाभिस्तुतानाम् वृष्णे भरन्ति वृषभाय सोमम् वृषासि दिवो वृषभ पृथिव्या वृषा सिन्धूनाम् वृषभस्तियानाम् वृष्णे दयन्तर्वृषभपीवाय स्वादूरसो मधुपे योगराय अयम् देवः सहजायमान इन्द्रेण युजा परिमस्तभायते अयम् स्वस्य पितुरायुधानीन्दूरमुष्णादशीवस्य मायाः अयमागृणो दुषसः सुपत्नीरयम् सूर्ये अदधा ज्योतिरन्तः अयम् त्रिधातु दिविरोचनेषु त्रिदेषु विन्ददमृतम् निगूढम् अयम् द्यावा पृथिवी विष्कभाजदयम् रथमयनक्सप्तरश्म्यम् अयम् गोषसच्चा पक्वमन्तः सोमो दाधारदसायन्द्रमुत्सम् श्रोत्रम् च पनश्च वाक्यः प्राणापानौ देह इदम् शरीरम् द्वौ प्रत्यम् चावनुलोमो विसर्गा वेदम् तम् मन्येतसा यन्त्रमुत्सम् नखश्च पृष्ठश्च करौ च बाहूजङ्घे चोरु उदरम् शिरश्च रोमाणि मांसम् रुधिरस्य लज्जमेतच्छरीरम् जलभुद्भुतोपमम् भ्रुवौ ललाटे च तथा च कर्णौ हनौ कपोलौ च मुखस्तथा च ओष्ठौ च दन्ताश्च तथैव जिह्वा मेधच्छरीरम् मुखरत्नकोशम्